ओम वक्रतुण्डामः काय कोटिसुरसमप्रभः निर्विघ्नं कुरु मे देव सर्वकालैः सर्वदा सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि चेद्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देव महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। स्वागतम् अत्र भवतां सर्वेषां सुस्वागतम् अस्माकं गीतासोपानवर्गे एकं सुभाषितं पठित्वा अग्रे गच्छेम। अत्र सुभाषितः एकवारं दृश्यते वा सुभाषितं दृश्यते वा इदानीम्? अस्तु श्यामला भगिनी पठति वा तत्र
कल्वाटो दिवसेश्वरस्य किरणौ हि सन्दापितो मस्तके वाञ्छन्त्येष मनातपं विद्धि वशादालस्य मूलं गदः तत्राव्यस्य महाफलेन पतता भग्रं शब्दं शिरः प्रयोगो गच्छति यत्र वाग्यरहितस्तत्रैव यान्त्ययापदः। किञ्चित्
अस्तु बृहत् करणीयं वा?
आं जि
किञ्चित् एकवारं न दृश्यते एकवारं प्रायः एकनिमिष एकनिमिष इदानीं दृश्यते वा एकवारं? पठति वा दृश्यते वा इदानीं? न दृश्यते वा? अस्तु अहं पठामि।
कल्वाडः दिवस्वेरस्य किरणौ हि संतापितः मस्तके वाञ्छन् देशम् अनातपम् विधिवशात् तालस्य मूलं गतः तत्र अपि अस्य महोबलेन पतता वक्रं सब्दं सशब्दं शिरः प्रायः गच्छति यत्र भाग्यरहितः तत्र एव यान्ति आपतः.
तात्पर्यम् धन्यवादः.
एकः खर्वाटः अर्थात् निष्केषमत्तकः आतपे गच्छन् शिरसः तापं वारयितुं मार्गस्थस्य तालवृक्षस्य छायाम् आश्रयत्. तत्र तदानीमेव तालवृक्षात् पक्वं तालफलं तस्य मस्तके अपतत्. तेन तस्य शिरः भग्नम् अभवत्. अस्य को अर्थः? दुर्दैवग्रस्तः मनुष्यः यत्र कुत्रापि गच्छेत् तस्य सङ्कटेभ्यः मोक्षः न स्यात् एव. अदृष्टहीनम् आपदः छायावत् अनुसरेयुः.
धन्यवादः महोदय. तत्र
प्रायः
सर्वे जानन्ति इदानीं
जानीयुः.
अस्तु, अत्र एकवारं पुनः पठेम. खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके वाञ्छन् देशमनादपं विधिवशात् तालस्य मूलं गतः तत्रापस्य महाफलेन पतता भग्नं पशब्दं शिरः प्रायो गच्छति यत्र भागरहितः तत्रैव यान्त्यापदः इति अस्ति. अत्र पश्यतु, प्रथमवाक्ये एकः कल्वाटः मूलं गतः. गतः इति क्रियापदमस्ति. गतः कुत्र गतः? मूलं गतः. कस्य मूलं गतः इति चेत् तत्र तालस्य मूलं गतः. तालस्य इति तालवृक्षस्य मूलं गतः. केन कारणात् तत्र कस्मात् कारणात् इति विधिवशात्. विधिवशात् इति चेत् तस्य विधेः आदेशेन अत्र तत्र व्यस्तिनि विधिवशात् तालस्य मूलं गतः. तालवृक्षसामान्य जानन्ति खलु तालवृक्ष इत्युक्ते किमस्ति तत्र किमस्ति तत्र सत्यं सत्यं तदेव अस्ति. किमर्थं गतः तत्र? अनातपं वाञ्छन्. अनातपं देशं वाञ्छन् इत्युक्ते यत्र आतप आतप इत्युक्ते हीट् द सन्शैन् आतपम् आतपम् आतप इति तपति खलु आतप इति भवति आतपः. आतपं देशम् आतपम् आतप अनातपं ताप् यत्र आतपः नास्ति तद् अनातपम् इति भवति. अनातपं देशं स्थलं वाञ्छन् इच्छन् वाञ्छति इत्युक्ते इष्टवान् वाञ्छन् इत्युक्ते इच्छन्. किमर्थं गतः तत्र? अत्र सन्तापितः मस्तके सन्तापितः सन्तापित सन्ताप इत्युक्ते फीलिङ्ग् द हीट् सन्तापितः सन्तापितः सन्तापित केन? कैः? किरणैः. किरणैः सन्तापित मस्तके सन्तापितः. कस्य कस्य किरणैः? दिवसेश्वरस्य. दिवसस्य ईश्वरः सूर्यस्य मित्रस्य दिवसेश्वरस्य इति सूर्यस्य किरणैः सन्तापितः. कः? कल्वाटः. तालवृक्षस्य मूलं गतः. इदानीं किम् अभवत् तत्र? तत्रापि अस्य शिरः भग्नम् अभवत् केन भग्नम् अभवत् पतता महाफलेन बृहत् फलेन यत् फलं वृक्षे तालवृक्षे यत् फलमासीत् पक्वं फलमासीत् तद् तस्य उपरि अपतत् अतः पतता महाफलेन पतन् इत्यस्य पतता इति पतन् इत्यस्य तत्र पतता इति भवति तृतीय शत्रन्तरूपमस्ति पतता महाफलेन स शिरः भग्नं गतं भग्नं जातं सशब्दं पतता महाफलेन तस्य शिरः इति अत्र नपुंसकलिङ्गं सकारन्तपुंसकलिङ्गमस्ति शिरस् भग्नं जातम् अतः सुभाषकर् वदति प्रायः सर्वदा प्रायः आपदः यान्ति गच्छन्ति इति ईन् गतौ इति धातोः यान्ति इति भवति इति धातु अस्ति इति धातु यान्ति इति भवति तत्र ईन् गतौ इति धातु यान्ति गच्छन्ति के गच्छन्ति अत्र काः गच्छन्ति आपदः आपद इत्युक्ते तत् कष्टानि तत्र आपत् इति स्त्रीलिङ्गे पदमस्ति आपत् आपदः आपत् अत्र आपदः यान्ति कस्य भागरहितस्य यत्र भागरहितः गच्छति तत्रैव तै आपदः अपि गच्छन्ति इति वदति अतः तत्र किं भवति अस्माकं तद् अदृष्टहीनस्य कुत्रापि तत्र अदृष्टहीनम् अस्ति चेत् तत्र क्लेशः भवति एव तत् यत्र कुत्रापि गच्छति चेदपि तत्र केनापि कारणेन तस्य कष्टानि आपतेयुः तस्मिन् कष्टानि आपतेयुः अतः तत्र तदेव वदति अत्र सुभाषितकारः दुर्दैवग्रस्तः मनुष्यः यत्र कुत्रापि गच्छेत् तस्य सङ्कटेपि सङ्कटात् तत्र तस्य मोक्षः न स्यात् मोक्षः न स्यात् एव न भवति एव इति स्यात् इति अत्र विधिलकारः अस्ति प्रायः इति स्यात् इति अस्ति तत्र मोक्षः न स्यात् इति वदति अस्तु अत्र अग्रे गच्छामः इदानीं तत्र अस्माकं अत्र प्रश्नः अस्ति वा किमपि अस्तु अग्रे गच्छामः इदानीं तत्र इदानीं गतकक्षायां वयम् एकां कथाम् आरब्धवन्तः कथा पठनम् आरब्धवन्तः कथायाः पठनं अस्तु ओ अत्र प्रथमपरिच्छेदं वयं पठितवन्तः पुनस्मरणार्थम् एकवारं वदामि चम्पकं नाम अरण्यमासीत् तत्र काकः एकाक्ष नाम काकः अपि च चित्राङ्गः नाम एक मृगः इत्युक्ते तारङ्गः मृग स्नेहेन वसन्ति स्म तदा एकदा किम् अभवत् एकः शृगालः तत्र आगच्छति क्षुद्रबुद्धिः नाम इति नाम तत्र क्षुद्रबुद्धिः इत्युक्ते तत्र बुद्धिः अपि समीचीनं नास्ति क्षुद्रः इत्युक्ते हीनबुद्धिः अस्ति तस्य स्वास्ति अस्ति मृगशृगालः तत्र आगच्छति इदानीं सः किं करोति सः मृगेन सह इत्युक्ते तत्र चित्राङ्गेन सह मित्रतां यच्छत् मित्रताम् इष्टवान् इदानीं मित्रतां प्राप्तुं तदा किम् अभवत् अतः किं कृतवान् शृगाल चित्राङ्गः तं तस्य निवासस्थानं नीतवान् इदानीं तत्र यदा तस्य स्नेहितः अस्ति काकः एकाक्षः तम् उपदिशति किम् उपदिशति अकस्मात् यत् यस्यपि अपरिचितः अपरिचितेन सह मित्रता न युक्ता न साधुः इति वदति न साधुः इति किमर्थम् इत्येतत् वयं न जानीमः वृक्ष मित्रः मित्रं कथं भवति तस्य गुणाः गुणानि कथं भवति इति वयं न जानीमः अतः तत्र किञ्चित् अस्माभिः तत्र तत्र किमस्ति तत्र वयम् आगन्तूनां सह मित्रता न युक्ता न किमस्ति न युक्ता इति अयुक्तम् अस्ति इति वदति इदानीं तदा किं वदति, तदा जम्बूका वदति प्रथमदर्शने भवान् अपि अपरिचितः एव आसीत्, मम सदृश भवान् अपि अपरिचितः आसीत्, अतः अत्र किमपि नास्ति, यथा भवान् इदानीं चित्राङ्गस्य मित्रम् अभवत् तदेव अहमपि इति, भवान् अपि मम बन्धुः अस्ति इति वदति. इदानीं तत्र इदानीं तत्र चित्राङ्गः इति तत्र इस् इनसेण्ट्, सः वदति अस्तु किं किमर्थं तत्र कोलाहलः, अलं विवादः मास्तु, वयं सर्वे आनन्देन निवसामः अत्र इति इति चित्राङ्गः वदति. इदानीं तत्र मित्रत्रयमपि तत्र सन्ति, चित्राङ्गः काकः एकाक्ष काकः अपि च क्षुद्रबुद्धिः शृगालः, अग्रे किं भवति इति पश्यामः. अस्तु अत्र निरञ्जन भगिनी पठति वा?
किञ्चित् कालानन्तरं शृगालः मृगम् अवदत् वनेस्मिन् एकं सस्यपूर्णक्षेत्रम् अस्ति, दर्शयामि त्वां. तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्. तद्दृष्ट्वा एकस्मिन् दिने क्षेत्रपतिना पाशः योजितः. किञ्चित् कालानन्तरं शृगालः मृगं वदति अवदत् वनेस्मिन् तत्र एक सस्यपूर्णक्षेत्रम् अस्ति, तथा कृते मृगं तत्र गत्वा सस्यम् अखादत्. तत् एकस्मिन् दिने क्षेत्रपातिना पाशः तत्र योजितः.
अत्र इदानीं पश्यति शृगालः किं करोति, शृगालः मृगम् अवदत् अवदत् इति क्रियापदमस्ति, कम् अवदत् कर्मपदमस्ति, मृगम् इति अस्ति तत्र. शृगालः शृगालः अवदत् मृगम् अवदत् इत्युक्ते तत्र कः अस्ति, तत्र तस्य नाम अस्ति चित्राङ्गं, चित्राङ्गपति अवदत् अस्मिन् अस्मिन् वने अस्मिन् अरण्ये एकं सस्यपूर्णं क्षेत्रमस्ति, तत्र यदि भवान् गच्छति चेत् उदरपूर्ति तत्र भवान् तत्र सस्यं सस्यानि खादितुं शक्नोति शक्नोति इति सः वदति. इदानीं तथैव इदानीं मित्रस्य उपदेशम् अथवा वचनं श्रुत्वा तत्र सः गच्छति, मृगः तत्र गत्वा प्रत्येकानहनी तत्र गत्वा तत्र सस्यानि अखादत् तत्र गत्वा. इदानीं किम् अभवत्, तद्दृष्ट्वा क्षेत्रपतिना पाशः योजितः, योजितः इत्यत्र कर्मणि प्रयोगे अस्ति, युजिदातोत् योजितः इति भवति, योजितः कर्मणि प्रयोगे अतः किं भवति, क्षेत्रपतिः पाशं योजितवान् इति भवति, अत्र योजितवान् अयोजत् अयोजयत् इति भवति, अत्र योजितवान् इति भवति क्षेत्रपतिः. अत्र योजितवान् तावत् प्रत्ययेन तत्र कर्तरि प्रयोगे, कर्तरि अस्ति भवति भूतकालात् इक्तान्तस्य अस्ति कर्मणि प्रयोगे भवति, अतः तत्र कर्तृपदस्य तृतीयविभक्ति भवति, क्षेत्रपतिः क्षेत्रपतिना इति भवति, क्षेत्रपतिना पाशम् इति अस्ति कर्मपदं द्वितीय भवेत्, तत्र प्रथमाविभक्ति अनु उक्तमस्ति, कर्म उक्तमस्ति चेत् अनभिहिते अभिहिते इत्यत्र प्रथमाविभक्ति भवति, योजितः पाशः योजितः कदा, दिने सप्तमीविभक्ति एकस्मिन् दिने, तद्दृष्ट्वा तद्दृष्टवान् इदानीं दृष्ट्वा इत्यत्र समानकन्दकयोः तत्र कार्यद्वयमस्ति चेत् तत्र तव त्वा प्रत्ययः भवति, तदा तद्दृष्टवान् क्षेत्रपतिः अतः एकस्मिन् दिने पाशं योजितवान् इत्यर्थः. अग्रे गच्छामि, धन्यवादः. अग्रे इदानीं अस्तु राधिका भगिनी.
आम् महोदय. तत्र गतः मृगः पाशे बद्धः, सः अचिन्तयत् इदानीं मृगान् इदानीं मित्राण् एव शरणं मम, दूरात् तत् पश्यन् जम्बूकः मनसि आनन्दितः, मृगः पाशाबद्धः, सः चिन्तयत् सः अचिन्तयत् इदानीं चिन्तयति मित्रम् एव मम शरणं करोति शरणम् इदानीं
करणीयम् अपेक्षितमस्ति मित्राणां सहायम् अपेक्षितमस्ति इदानीम्
दूरात् तत् पश्यन् जम्बूकः मनसि आनन्दितः जम्बूकः आनन्दितः तत् दृष्ट्वा सो अचिन्तयत् फलितं मे मनोरथम् इदानीं प्रभूतं भोजनं प्राप्स्यामि जम्बुकः चिन्तयति मम मनोरथं फलितमस्ति इदानीं मम भोजनं प्राप्नोमि
प्राप्स्यामि इत्यत्र प्राप्स्यामि इति प्राप्नोति इत्यस्य लिट्लकाररूपमस्ति प्राप्स्यामि अहं भोजनं प्राप्स्यामि इदानीं प्रभूतं
भोजनम्
इति अधिकं भोजनं प्राप्स्यामि इति अत्र
प्रभूतं नाम
अधिकम् प्रभूतम् इति तत्र प्रभूतम् इति प्रभूतम् अधिकं पुष्कलम् इति अस्ति वद पुष्कलं भोजनं प्राप्स्यामि इदानीं किमर्थमिति इदानीं तु पाशैः बद्धः अस्ति मृगः इदानीं सः मरणं प्राप्नोति अनन्तरम् अहं तं खादामि इति चिन्तयति किमर्थम् इत्युक्ते नाम अपि क्षुद्रबुद्धिः अस्ति अतः क्षुद्रबुद्धिः तद् दुष्टबुद्धिना एव तत् तेन तत्र शृगालस्य मित्रतां क्षम्यतां मृगस्य कः अस्ति तत्र मृगस्य नाम अस्ति चित्राङ्गस्य मित्रताम् इष्टवान् आसीत् पूर्वमेव अतः इदानीं सः इदानीं तत् पूर्वमेव चिन्तितवान् आसीत् कथमपि एतं मारयित्वा अहं खादामि तस्य मांसं खादयामि खादामि इति तस्य मनोरथमासीत् इदानीं सः चिन्तयति मम मनोरथं मनसः इच्छा मनस्रथं मनोरथम् इति भवति तत्र सन्धिः अस्ति मनसः रथं मनसः इच्छा इदानीं फलितं जातम् इति इति चिन्तयति धन्यवादः
धन्यवादः
इदानीं तत्र यशोदा भगिनी पठति वा अग्रे
मृगस्थं दृष्ट्वा अब्रवीत् मित्र चिन्दि तावत्त्वं बन्धनं तत् त्रायस्व मां जम्बुको दूर देवावदत् मित्र दृष्टोऽयं बन्धः स्नायुमित्रां पाषणेन कथं पाषणेन कथं व्रतदिवसे
स्पृशामि
इत्युक्त्वा सः समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः
अत्र मृगः तं दृष्ट्वा मृगस्तम् इति सन्धिः भवति विसर्गस्य सकारः भवति तकारस्य कारणेन तदा मृगस्खरिचैत्येन भवति मृगस्तं दृष्ट्वा अब्रवीत् उक्तवान् आह इति भवति अब्रवीत् इत्युक्ते ब्रूधातु अस्ति ब्रूते इति अस्ति तत्र अब्रवीत् इति लङ्लकारे अस्ति उक्तवान् इति अस्ति अब्रवीत् मित्र हे मित्र चिन्दि तावत् मम बन्धनं तावन् मम इत्यत्र अनुनासिकसन्धिः भवति तावन् मम इति अत्र तकारस्य मकारस्य अनुनासिकवर्णः अस्ति अतः तकारस्य अनुनासिकवर्णः भवति तावन् मम बन्धनं चिन्दि त्वं चिन्दि इति कथ मध्यपुरुषे अस्ति लोट्लकारे चिनत्ति चिद् धातुः अस्ति चिनत्ति छेदनं करोतु त्वं चिनत्तु चिनत्तु छेदनं करोतु इति चिन्दि इति अत्र मध्यपुरुषे एकवचनमस्ति मिहे मित्र चिन्दि एतत् बन्धनं चिन्दि छेदनं करोतु अस्ति मम मां मुञ्चयत मुञ्चे मां मुञ्चयस्व इति मुञ्चयतु इति इत्युक्ते तत्र त्रायस्व त्रायते रक्षस्व इति अत्र त्रायते रक्षतु मां रक्षतु इति त्रायस्व इति त्रायते त्रादातु अस्ति रक्षणे त्रायते इत्यस्य अत्र आत्मनेपदरूपमस्ति त्रायस्व इति भवति त्रायस रक्षतु इत्यर्थे अस्ति रक्ष अत्र रक्ष त्रायस्व माम् इति इदानीं जम्बूकः अवदत् जम्बूको जम्बूकः इत्यत्र विसर्गः अस्ति अनन्तरं अत्र पश्यतु अत्र यत्र यत्र अकारात् अनन्तरं विसर्गः अस्ति चेत् तत्र उकारः भवति अनन्तरं सन्धिः भवति अकार उकार ओकारः भवति दकार अत्र किमस्ति तत्र मृदुव्यञ्जनमस्ति अतः जम्बूको अवदत् दूरात् एव दूरे स्थित्वा एव अवदत् दृढः अयं बन्धः दृढोऽयम् अत्रापि दृढः अयं बन्धः अत्रापि दृढः अयं दृढो अयम् इति भवति अनन्तरं सन्धिः भवति अत्र किमस्ति अत्र पुररूपसन्धिः भवति आं दृढोऽयं बन्धः यद् दृढम् अस्ति एतत् अहं तत्र किं वदति एतत् स्नायुना निर्मितमस्ति स्नायुनिर्मितं पाशः अस्ति किञ्चित् ध्वनिः आगच्छति अस्तु स्नायुना निर्मितमस्ति स्नायु इत्युक्ते चर्मणः निर्मितमस्ति स्नायुनिर्मितान् एते पाशाः स्नायुना निर्मितमस्ति किञ्चित् भगिनि तत्र मिपदेव भवतु अस्तु एतान् स्नायुनिर्मितमस्ति चर्मनिर्मितमस्ति अतः यत् अद्य वृतदिवसः अस्ति अहं न स्पृशामि वृतदिवसे स्नायुनिर्मितान् पाशान् अहं न स्पृशामि ट्राप्स् इति पाशा इत्युक्ते तत्र किमपि रज्जु इव भवति खलु चर्मणनिर्मितं स्पृशामि इति एतत् उक्त्वा इति उक्त्वा इत्युक्त्वा सः समीपमेव वृक्षस्य पृष्ठतः वृक्षस्य पृष्ठतः इत्युक्ते तस्य टु इन् द बेक् सैड् पृष्ठतः निर्भृतं स्थितः निर्भृतमित्युक्ते क्वायट्लि अथवा कपटरीत्या किं भवति स्टेल्दिलि इति अपि निर्भृतं भृदा भवति निर्भृतं स्थितः स्थितवान् इति तत्र इदानीम् अस्ति किं भवति इति सः पश्यति कदा एषः मृगः मरिष्यति कदा अहं खादामि इति स चिन्तयित्वा सः तत्र वृक्षस्य पृष्ठतः गत्वा तिष्ठति इदानीम् अग्रे अस्तु अग्रे इदानीं तत्र कः वदति अस्तु सुमित्रा भगिनी पठितुमिच्छति वा
आं महोदय
अस्तु
प्रदोषकाले मृगम् अन्विष्यन् काकः तत्रोपस्थितः मृगं तथाविधं दृष्ट्वा स उवाच सखे किमेतत् किम् एतत् किमेतत् मृगेण उक्तं सुहृद्वाक्यस्य अनादरात् बद्धोऽहम् उक्तं च सुहृदां हितकामानां यः शृणोति न भाषितं विपत्सन्निहिता तस्य स नरः शत्रुनन्दनः
वदति वा किम् इति किञ्चित् सस्यवाक्यैः
यु वाण्ट् मी टु एक्स्प्लेन्
यस् यस् किञ्चित् अस्माकम् अभ्यासः भवति इति संस्कृतस्य सम्भाषणस्य तावदेव
प्रदोषकाले ऐ डोण्ट् नो वाट् प्रदोष
सायं सायं सन्ध्या यत्र सन्ध्याकाले प्रदोष सन्ध्या इति सन्ध्याकाले प्रदोषकाले सायं यत्र रात्रि रात्रि रात्रेः अपि च किमपि अपि च दिवसस्य सन्धिः भवति प्रदोषकाल इति वदामः सायं प्रायः
तत्काले मृगम् अन्विष्यन्
तस्य अन्वेषणम् अन्वेषणं कुर्वन् इति मृगम् अन्विषन् तस्य
काक तत्र उपस्थितः काक
तत्र गतवान् तत्र गतवान् उपस्थितः तत्र काकः तत्र उपस्थितः गतवान् इदानीं तम् अन्विषन् अन्वेषणं कुर्वन् इति अग्रे
मृगं तथाविधं दृष्ट्वा सीयिङ्ग् द डियर् इन् दट् स्टेट् स उवाच सखे किम् एतत् वट् इस् दिस् मृगेण this has been said by the deer sukrut vakyasya anadarat baddoham not listening to my friend I am thus uktam cha and then he quotes sukrudam hitakamanam yah shrunoti na bhashitam vipat sannihita tasya sa narah shatru nandana सुहृदाम् इस् षष्टि बहुवचनं हितकामानां
कीदृशानां कीदृशानां कीदृश कीदृश कीदृशानां सुहृदानां सुहृदां
हितकामानां वेल् विश्
हितकामानां सुहृदां यः
यः
शृणोति किं न शृणोति न शृणोति
I'm sorry, I did not understand.
No, no. Suhudam hitakamanam yah shrunoti na bhashitam. Suhudana, sorry, suhudam hitakamanam. Suhuditi asti atra. Suhuditi dakarandati. Suhud. Suhudam iti bhavati. Bhavatam iti. Suhudam hitakamanam. Suhudam bhashitam yah na shrunoti. Yah na shrunoti. Na shrunoti.
Got it.
Ah. He who does not pay
attention to the, to the well-wishers' advice.
Tasya kim bhavati agre? Agre ma shloke. Vipat
sannihita tasya. Vipat is close by.
Sannihita. Tasya sannihita. Vipat sannihita bhavati. Vipat iti trilinga asti. Sannihita iti bhavati. Sannihita. Vipat sannihita. Tasya vipat sannihita bhavati iti asti. सः नरः पुरः भवति सः नरः शत्रुनन्दनः शत्रोः शत्रुं रञ्जयत् इति भवति किमर्थमित्युक्ते शत्रुः अस्माकं शत्रुः तदा किं चिन्तयति अस्माकं नाशं भवतु इति खलु अतः शत्रुनन्दनः भवति सः नरः तादृशनरः शत्रुनन्दनः भवति इति सः इदानीं तस्य इदानीं तत्र सुभाषितम् उक्तवान् इति कथाकारः इति तत्र वदति सुहृद्वाक्यस्य अनादरात् अहं न तस्य वचनं न श्रुतवान् भवतः वचनं न श्रुतवान् अतः अहम् इदानीं कष्टे इदानीं कष्टम् अनुभवन् अस्मि कष्टे पतितम् अस्मि अतः किं करणीयम् इति सः वदति इदानीम् अस्तु धन्यवादः भगिनि अग्रे इदानीं अस्तु पुनः श्यामला भगिनी पठति वा अग्रे
आं जि काकः अभूत् सः वञ्चकः फस्ते मृगेणोक्तं मन् मांसार्ति तिष्ठत्यत्रैव काकः उक्तवान् उपायस् चिन्तनीयः
किमस्ति अत्र
काकः वदति काकः वदति उक्तवान् स वञ्चकः शृकालः
इदानीं तिष्ठति कुत्र अस्ति आस्ते इत्युक्ते तत्र तिष्ठति कुत्र इदानीम् अस्ति सः कुत्र अस्ति इति
कुत्र तिष्ठति मृगे मृगणोक्तं
मृगेण उक्तं गुणसन्धि मृगेण उक्तम्
मृगेण
मृगेण उक्तं
मृगेतं मन्मासं
मम मांसार्थि मत् इत्यत्र मत् मत् मम मांसार्थि मम मांसार्थि मत् अत्र मन्मांसार्थि समासः भवति तत्र नकारस्य नकारः भवति मन्मांसार्थि मम मांसं खादितुं यत् यः इत्यम् आगतमस्ति सः मांसार्थि भिक्षार्थि विद्यार्थि इति खलु अस्तिन्निति मांसात् अस्तिन्निति भवति मांसार्थि विद्यार्थि इनन्तरं मांसार्थि तिष्ठति अत्रैव अत्र एण्डति अस्ति तिष्ठति अत्रैव इति अस्ति तत्र
तिष्ठति अत्रैव काकः अग्रे काकः उक्तवान् काकः अब्रूत उपायस्तवात् चिन्तनीयः
तावत् इति अवयमस्ति तावत् तावत् तर्हि वयम् अस्माभिः इदानीं उपायम् अस्माभिः उपायः चिन्तनीयः इति तत्र चिन्तनीय यानि अनियपत्य चिन्तनीयः करणीयः पठनीयः गमनीयः इत्यादृश इति पठितव्यं गन्तव्यम् इत्यादृश अस्य विद्यर्थे भवति तत्र उपायः उपायम् उपायः चिन्तनीयः इति भवति अथवा वयम् अथवा अहम् उपायं चिन्तयामि इति वदति तावत् अहम् एकम् उपायं चिन्तयामि कथं भवन्तं अपायात् रक्षणीयमिति कथं रक्षणीयं भवन्तमिति इति सः वदति अग्रे धन्यवादः
धन्यवादः
शङ्करप्रसाद् महोदय अग्रे पठति वा
आं महोदय अथ प्रभाते क्षेत्रपतिः लकुडहस्तः आगच्छन् काकेन अवलोकितः तम् आलोक्य काकेन उक्तं सखे मृग त्वम् आत्मानं मृतवत् सन्दर्शय वातेन उदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ यदा अहं शब्दं करोमि तदा त्वम् उत्थाय सत्वरं पलायिष्यसि मृगः तथैव स्थितः देन् प्रभाते एर्लि अवर्स् मार्निङ्ग् एर्लि मार्निङ्ग् क्षेत्रपति that farm owner laguda hastaha kinge laguda
danda kate laguda asti danda kimapi asti laguda laguda mite danda iti uchitama laguda hastaha kshetrapati kshetrapati laguda hastaha iti atra bahubrihi samasa asti kshetrapati laguda hastaha kshetrapati
agachan coming kakena avalokitah kaka has seen
क्षेत्रपतिं दृष्टवान् लघुडहस्तं क्षेत्रपतिं दृष्टवान् आगन्तम् आगच्छन्तं
क्षेत्रपतिं
अग्रे
तम् आलोक्य आन् सीयिङ्ग् हिम् क्षेत्रपतिम् आलोक्य
लोकते इति लोकदातु अस्ति लोकते
काकः वदति सख मृग त्वम् आत्मानं मृतवत् सन्दर्शय यु अपियर् एस् इफ् यु आर् डेड्
मृतवत् सन्दर्शय दर्शयतु अधिपयं डेड् इति मृतवत् मृतवत् मृगवत् इति अत्र मृतवत् इति वत् वतु प्रत्य अस्ति वत् मृगवत् छात्रवत् अथवा वृक्षवत् इति तादृश आत्मानं स्वं आत्मनित्य स्वयं
वातेन
सत्यम्
आत्मानं स्वयं वातेन वित् एर् उदरं स्टामक् पूरयित्वा उदरे वातं पूरयित्वा पादान् स्तब्धीकृत्य स्तब्धीकृत्य मीन्स् वितौट् मूमेण्ट् जस्ट् पुट् युवर् लेग्स् यु बी लैक् देट् यदा अहं शब्दं करोमि यदा अहं शब्दं करोमि तदा त्वम् उत्थाय इमिडियेट्लि यु गेट् अप् तत्वरं पलायिष्यति मृगः मृगः तत्र एव
वातेन उदरं पूरयित्वा अजिपिति डेड् बाय् एनिमल् बाय् गेट् रोटेरिस् सत्यं तथैव कृतवान् इदानीम् उत्तमम् अत्र किमस्ति अत्र ऐरन् राड् आर् किमपि तत्तिक् इति लगुड इत्युक्ते अत्र बेट् आर् एनिथिङ्ग् नो बिग् स्टिक्
इति
आमां सत्यं लगुड लगुड इति आर् यु नो टु हेमर् टैप् लैक् युनो इति वयं चिन्तयितुं शक्नुमः लगुड हस्ता इति अस्तु धन्यवादः भगिनि महोदय अग्रे एकवारं अग्रे इदानीं निरञ्जना भगिनी पठति वा
क्षेत्रपतिना मृगः आलोकितः उक्तञ्च आह स्वयं ऋतोऽसि सः मृगं बन्धनात् व्यमुञ्च ततः काकशब्दं श्रुत्वा मृगः सत्वरं पलायितः तमुद्दिश्य क्षेत्रपतिना क्षिप्तेन लघुडेन शृगालः तावत् हतः यदा क्षेत्रपतिः तत्र तदनन्तरं क्षेत्रपतिः मृगेण आलोक्य वदति चिन्तयति मृगः मृतः एव अस्ति अतः सः मृगेण मृगं बन्धनात् मृगस्य बन्धनं दूरं करोति ततः काकः शब्दं करोति तत् श्रुत्वा मृगः चतुरं पलायनं करोति तदर्थं क्षेत्रपतिः क्रोधेन लघुडेन शृगालः तावत् शृगालेन हन्ति अभवत्
किं करोति क्षेत्रपति क्षिपति लघुडं क्षिपति तत्र मृगस्य उपरि क्षिपति इदानीं तत्र दृष्ट्वा सः क्रुध्यति अतः तं मारयितुम् इदानीं तत् यदा अस्ति तस्य अस्ति आसीत् लघुडं तस्य उपरि क्षिपति इदानीं तत्र
क्षिपतु
क्षिप्तेन लघुडेन किम् अभवत् तत् लघुडं लघुडः शृगालस्य उपरि अपतत् अतः शृगालः एव मृतः इदानीं तत्र अतः इदानीं तस्य इदानीं दुष्टबुद्धेः तस्य दुष्कार्यस्य फलं शृगालः प्राप्तवान् अस्ति इति व्यसने मित्रपरीक्षा व्यसने इत्युक्ते सङ्कटकाले व्यसने इति क्षम्यताम् अत्र सम्यक् न लिखितवान् व्यसने व्यसने भवेत् व्यसनं व्यसने मित्रपरीक्षा इति अस्तु अस्तु अग्रे गच्छामः इदानीम् अस्माकं इदानीम् अग्रिमपाठ अस्ति सप्तमी विभक्ति एकवारं सप्तमीविभक्तेः किञ्चित् वयम् अत्र पठेमः तत्र रूपाणि कथं सन्ति सर्वे जानन्ति रूपाणि सप्तमीविभक्तेः रूपाणि कथं भवन्ति इति एकवारं तत्र केवलम् अस्माकं पुनस्मारणार्थम् एकवारं पठेमः तत्र अस्तु धन्यवादः भगिनि अत्र इदानीं यशोदा भगिनी पठति वा
आं पठामि मृगस् महाराजः गजे उपविशति खगाः आकाशे विहरन्ति आञ्जनेयः ध्वजे विलसति छात्राः विद्यालये पठन्ति शिशुः
तत्र न अत्र सप्तमीभक्तिपदानि कानि इति भवान् वदतु.
आकाशे
गजः गज अकारान्तपुल्लिङ्ग तथा गजे भवति. आकाशः अकारान्तपुल्लिङ्ग तथा आकाशे. ध्वजः ध्वजे. विद्यालयः विद्यालये. अत्र सर्वत्र कुत्र इति वदन्ति यद् वयं प्रश्नं पृच्छामः कर्तृपदम् उद्दिश्य यद् उत्तरं भवति तदेव सप्तमीभक्त्यां भवति. कुत्र इति तत्र सप्तमीभक्त्यर्थकपदमस्ति. अतः तत्र यत् कुत्र इति प्रश्नं कुर्मः क्रियापदम् उद्दिश्य तद् भवति तत्र उत्तरं भवति तत्र सर्वदा सप्तमीभक्त्यां भवति. साधारण अधिक अतः किम् अस्ति वयं जानीमः अधिकरणम् इति खलु आधारः. उपविशति कुत्र उपविशति आधारः इति राजा गजे उपविशति. विहरन्ति आकाशे इदानीम् आकाशे अपि आधारः अस्ति. इति आकाशे खगाः तत्रापि आकाश आधारः अस्ति. आधारः इत्युक्ते भिन्नरीति आधारः भिन्नरीति आधारः अस्ति. एतत्तु आकाशे आकाशे कोऽपि तत् स्थातुं न शक्नोति खलु. परन्तु तत्र तादृशं भवति आकाशे खगाः विहरन्ति. तत्र किं भवति तत्र अन्यरीतिका अस्ति. तत्र वैषयिक आधारः इति वदामः. विषयस्य आधारः भवति. आकाशे विहरन्ति. विलसति अत्र आञ्जनेय कुत्र विलसति ध्वजे विलसति. अत्र पठन्ति छात्राः पठन्ति. कुत्र पठनकार्यस्य अतः आधारः अस्ति. छात्राः कुत्र स्थित्वा यद् कर्ता कः अस्मिन् वाक्ये छात्राः कुत्र पठन्ति विद्यालये स्थित्वा पठन्ति. अतः सर्वत्र सप्तमी भक्ति भवति. अधिकरणम् इति वदामः अधिकरणकारकम् इति पश्यतु. कारकं द्विविधा भवति. एकमस्ति कारक सप्तमीभक्ति द्विधा भवति. कारकं द्विधा भवति. क्षम्यतां विभक्ति द्विधा भवति. एकं तु कारकविभक्ति अपि च अन्यत् उपपदविभक्ति. कारकविभक्ति इत्युक्ते किमस्ति यत् कारकम् इत्युक्ते क्रियान्वयी कारकं. यत् कारक क्रियायाः सह अन्वयं भवति तदेव कारकं भवति. यत्र यत्र वाक्ये यत् क्रियापदमस्ति अन्ये अन्यानि पदानि क्रिया सह अन्वयं करोति चेत् तत्र वयं ज्ञातुं वक्तुं शक्नुमः यत् कारकम् इति वदामः. कारकम् इति क्रियायाः सह अन्वयं भवति. करोति क्रियां क्रियां करोति इति तत् कारकम्. अत्र क्रियायाः सहायकरूपेण सामान्यतः किं भवति क्रिया कः करोति तत्र कर्ता करोति खलु. तत्र प्रधानकर्ता भवति. एवं कर्म भवति. कर्म कुत्र इति आब्जेक्ट् अस्ति. सब्जेक्ट् अस्ति अत्र महा कर्ता कर्म. अन्ये अपि क्रियां समापयितुं तत्र सहायकः भवति. यथा उपविशति उपवेशनक्रियाया गज अत्र कुत्र कटे गजे आसने इति तादृश. अतः कारकविभक्ति इति वदामः. अत्र अस्माकम् इदानीं कारकविभक्ति इति अस्ति. अग्रे धन्यवादः भगिनि. अग्रे इदानीं कः करोति राधिका भगिनी पठति वा अग्रे शिशुः.
आम् महोदय. आम् महोदय. शिशुः प्राङ्खायाम् अस्ति.
प्रेङ्का स्त्रीलिङ्गपदमस्ति.
क्षम्यतां. प्रेङ्खायां चित्रं वेदिकायाम् अस्ति. वेदिका वेदिकायाम् आकारान्त स्त्रीलिङ्गः. वर्णाः पिञ्चिकायां सन्ति. पिञ्चिका पिञ्चिकायां
मयूरस्य खलु
सत्यं.
पिञ्चिकायां सन्ति. पिञ्चिका इति वदामः. अग्रे
जनाः वाटिकायां विहरन्ति. वाटिका वाटिकायां.
वाटिका इति स्त्रीलिङ्गपदमस्ति. अतः प्रथमाविभक्तिरूपमस्ति वाटिका इति. अत्र वाटिकायां वाटिका इत्युक्ते वने इति वनम् अथवा वाटिका उद्यानम् उद्याने अत्र वाटिका इति अस्ति. अस्तु जानीमः आकारस्य स्त्रीलिङ्गपदमस्ति चेत् प्रेङ्कायां वेदिकायां पिच्चिकायां वाटिकायाम्. अत्रापि अधिकरणमस्ति. अत्र अधिकरणकारकमस्ति. अतः अधिकरणकारकं सूचयितुं तत्र सप्तमी भक्ति इति अस्ति. अग्रे इदानीं धन्यवादः भगिनि. तत्र इदानीं अस्तु यशोदा भगिनि.
बाणाः तुणिरे सन्ति. योद्धारः रणक्षेत्रे युध्यन्ते. श्रान्तः कुटीरे निद्राति. बालः गृहे तिष्ठति.
तत्रापि तूणीरः इति वाटिकान् यत्र बाणः बाणं स्थापयामः खलु तूणीरं क्षम्यतां नपुंसकलिङ्गे तूणीरं तूणीरम् तूणीरं अत्र अत्र नपुंसकलिङ्गमस्ति सर्वं तूणीरम् इति तूणीरे अकारान्त नपुंसकलिङ्गपदमस्ति. तत्रापि अत्र पश्यतु ध्वजः विद्यालयः तथैव अत्रापि नपुंसकलिङ्गे अपि तदेव अस्ति रूपसमानमेव वयं जानीमः. अग्रे
रणक्षेत्रम्
अग्रे
कुटीरं कुटीरे गृहे
तत्रापि गृहम् इति नपुंसकलिङ्गस्य आकारान्तपुल्लिङ्ग नपुंसकलिङ्ग गृहं गृहे कुटीरं कुटीरे. अस्तु धन्यवादः. इदानीं सुमित्रा भगिनी पठति वा?
आं महोदय. औषधं कूप्याम् अस्ति. कूपी कूप्यां. नौका नद्याम् अस्ति. नदी नद्यां. वस्तूनि प्रदर्शिन्यां सन्ति. प्रदर्शिनी. जलं वाप्याम् अस्ति. वापी. वाट् इस् वापी?
वापी सरोवर. वापी इत्युक्ते सरोवर सरस् इति वदामः. सरस सरः इति वापी. जलं वापी अत्र ईकारान्तस्त्रीलिङ्गपदमस्ति. कूप्यां नदी नद्यां प्रदर्शिनी प्रदर्शिन्यां वाप्याम् इति तत्र वयं रूपाणि इदानीं दृष्टवन्तः. इदानीम् इदानीं किञ्चित् तत्र इदानीं द्वितीय द्विवचने अपि सन्ति. अस्तु एकवारं पश्यामः तत्रापि तदपि तदपि पठेमः. अस्तु धन्यवादः भगिनि. तत्र इदानीं श्यामला भगिनी अग्रे पठति वा?
आं जि. चिङ्गिन्यौ पादयोः स्तः. बडाः रथयोः सन्ति. फलानि वृक्षयोः सन्ति. कङ्कणानि हस्तयोः सन्ति. पादः पादः पादयोः पादः पादयोः पादे पादयोः
पादः इति पादः खलु पादः पादौ पादाः इति अग्रिमे अत्र द्विवचने अस्ति. अतः
पादे पादयोः. रथे रथयोः.
रथः रथः इति रथे रथयोः. सम्यक् रथे रथयोः सम्यक् द्विवचने. वृक्षे वृक्षयोः
पादः. इस् इट् पुल्लिङ्ग ओर् इस् इट् नपुंसकलिङ्ग?
पादः पादः इति प्रायः पुल्लिङ्गे अस्ति. पादः इति पादः खलु पादः पुल्लिङ्गे अस्ति. पादः इति
किणि इस् पुल्लिङ्गम्
इति पदम् इति तत्र भिन्नमस्ति. पाद इति पादः इति पुल्लिङ्गपदमस्ति. पादयोः तत्र अकारान्त नपुंसकलिङ्गः अस्ति. पुल्लिङ्गवत् अस्ति. सारि अकारान्त पुल्लिङ्गपदमस्ति. पादयोः रथः रथयोः वृक्षः वृक्षयोः हस्तः हस्तयोः इति अस्ति तत्र. प्रश्नः अस्ति वा? धन्यवादः भगिनि.
धन्यवादः.
यशोदा भगिनी पर्णानि.
पर्णानि लतयोः सन्ति. लतयो लताः लतयोः द्विवचन न न न इत्युक्ते बहुवचन रैट्?
न लता हा बहुवचनमस्ति बहुवच न न तत्र द्विवचने अस्ति खलु लता लते लताः इदानीं तत्र लतायां लतयोः लता लता इति त्रिलिङ्गपदमस्ति एकवचने किं भवति सप्तमी विभक्ति लतायां यथा वयं दृष्टवन्तः पूर्वं तत्र वेदिकायां पिच्छिकायां वाटिकायां लतायां लतयोः
स्त्रीलिङ्गपदमस्ति
लता इति भवति लता लतायो लतायोः न भवति लतयोः इति नौका अग्रे अग्रे यात्रिकाः
नौकयोः सन्ति नौका नौकाः
नौका इति आकारः स्त्रीलिङ्गपदमस्ति अतः नौकयोः नौकायां नौकयोः इति भवति अग्रे
वस्त्राणि पेटिकयो सन्ति पेटिकायां पेटिकयोः
सम्यक् उत्तमम् अग्रे
पुस्तकानि निधानिकयोः सन्ति
निधानिका निधानिका शेल्फ् इति वदामः निधानिका
निधानिकां निधानिकयोः
आकारान् त्रिलिङ्गपदमस्ति अतः अत्र किं भवति अकारान्तस्य ह्रस्व भवति निधानिक निधानिकयोः पेटिका इति अस्ति पेटिकयोः नौका नौकयोः लता लतयोः इति भवति सर्वत्र धन्यवादः
धन्यवादः
इदानीं किञ्चित् तत्र अस्तु अग्रे इदानीं बहुवचनरूपाणि पश्यामः इदानीं निरञ्जन भगिनी पठति वा अग्रे
जलं द्रोण्योः अस्ति मीनाः तत्र द्रोणी अस्ति इकारं दीर्घकारं तु श्रीलिङ्गिशब्दः अस्ति द्विवचनमस्ति द्रोण्यां द्रोण्योः द्रोण्योः सप्तमी
जलं
द्रोण्योः द्रोण्योः अस्ति मीनाः नद्योः सन्ति नदी इकारान्त श्रीलिङ्गशब्दः अस्ति दीर्घ इकारान्त नद्यां नद्योः नदीषु सप्तमी भवति मीनाः नद्योः सन्ति द्विवचन अस्ति तैलं दर्व्योः अस्ति दर्वी श्रीलिङ्गीकारान्त शब्द अस्ति द्विवचन अस्ति दर्व्योः दर्व्यां दर्व्योः दर्वे दर्व्याशु दर्वी बाटल् यज्ञकार्य तत्र दर्वी
अस्ति तद् दर्वी अस्ति यत् दारु दारुणा निर्मितं दारु इत्युक्ते तत्र काष्ठे निर्मितमस्ति पुरातनकाले तादृश अस्ति खलु आसीत् खलु तादृशं दारु इति वृक्ष दर्वी इति भवति तेनैव मूले
वुडन् तैलं दर्व्योः अस्ति मशी पुनः पूरण्योः अस्ति पुनः पूरणे एकानन्दश्रीलिङ्गी शब्दः अस्ति पुनः पूरण्योः द्विवचनस्ति सप्तमी द्विवचनमस्ति पुनः
पूरयामः मशीते इङ्क् अस्ति पुनः पूरण्योः पूरण्योः अस्ति सम्यक् उत्तमम् अतः इकारात् स्त्रीलिङ्गपदस्य द्रोण्योः नद्योः दर्व्योः अत्र गौर्योः लक्ष्म्योः तादृश सर्वत्र रूपाणि समानानि इकारात् धन्यवादः भगिनि कृपया पृच्छन्ति भवन्तः अस्तु श्यामला भगिनी कृपया पृच्छन्ति इदानीं शङ्करप्रसाद् महोदय अग्रे इदानीं
महोदय
चक्राणि
चक्राणि चक्राणि चेन्दनयोः सन्ति अश्रूणि नेत्रयोः सन्ति अलङ्कारः द्वारयोः अस्ति चित्राणि पुस्तकयोः सन्ति चन्दनं चन्दनयोः द्विवचनम्
आम् द्विवचनमस्ति चन्दनम् इति अपसलिङ्ग अस्ति
द्विवचनं नेत्रे नेत्रयोः नेत्रं नपुंसकलिङ्गं द्विवचनं द्वारयोः तदपि नपुंसकलिङ्गं द्विवचनं पुस्तकं पुस्तकयोः.
अस्तु, धन्यवादः. इदानीम् अग्रे तत्र किञ्चित् बहुवचने पश्यामः. इदानीं तत्र सुमित्रा भगिनी पठति वा अग्रे बहुवचने?
आं महोदय. जनाः मृगेषु गच्छन्ति,
मार्गेषु
गच्छन्ति, मार्गः मार्गो मार्गान् मार्गाः. सो इट् इस् पुल्लिङ्ग
अकारः पुल्लिङ्गवदनमस्ति, अतः तत्र मार्गे
मार्गे मार्गयोः मार्गेषु.
सम्यक्, उत्तमम्. अग्रे
खङ्गाः
खड्गाः खड्गाः स्वोर्ड्स्
खड्गाः कोशेषु सन्ति. कोशे कोशयोः कोशेषु, कोशः पुल्लिङ्ग अकारः. वानराः वृक्षेषु क्रीडन्ति. वृक्षः वृक्षौ वृक्षाः अकारान्त पुल्लिङ्ग. सो वृक्षे वृक्षयोः वृक्षेषु सप्तमी. विचाराः ग्रन्थेषु भवन्ति. ग्रन्थ इस् पुल्लिङ्ग ग्रन्थ ग्रन्थौ ग्रन्थाः ग्रन्थे ग्रन्थयोः ग्रन्थेषु.
उत्तमम्, उत्तमं. विचाराः ग्रन्थेषु भवन्ति. सर्वत्र सु इति भवति. सु इति प्रत्यय, सुप् इति प्रत्यय. अतः तत्र मार्गे यत्त्वं भवति तत् सुवर्तगुणः भवति. अकारस्य एकारः भवति. मार्गेषु कोशेषु वृक्षेषु ग्रन्थेषु इति अस्ति तत्र. धन्यवादः. तत्र अत्र सकारस्य षत्वं भवति. अग्रे पश्यामि, अतः वदामि किमर्थं भवति तत्र अग्रे. अस्तु, इदानीं श्यामला भगिनी अग्रे. सर्पाः
आं जि. सर्पाः शाखासु चरन्ति, शाखायां सञ्चरन्ति. शाखायां शाखयोः शाखासु. वार्ताः पत्रिकासु सन्ति, पत्रिकायां पत्रिकयोः पत्रिकासु. सिंहाः गुहासु वसन्ति, गुहायां गुहयोः गुहासु. छात्राः वाटिकासु विहरन्ति, वाटिकायां वाटिकयोः वाटिकासु.
वाटिकासु इति प्रत्यय अस्ति, किमपि नास्ति. सु इति योजनीयं. शाखा एकसु शाखासु. अत्र शू न भवति. किमर्थम् इति चेत् सकारस्य पूर्वं दीर्णवर्णः इत्युक्ते अकारमध्ये अन्ये वर्णस्वराः सन्ति चेत् शू भवति. इदानीं ईकारस्य प्राणिषु इति भवति. इत्यत्र मार्गेषु एकारस्य मार्गेषु इति भवति. परन्तु अत्र सकारः पूर्वं किमस्ति? आकारः अस्ति, अतः न भवति. अकाराकारस्य न भवति. अतः शाखासु पत्रिकासु नाम पत्रिकासु, गृहासु वाटिकासु. एकं सूत्रमस्ति, इण्कोः आदेशप्रत्ययो सकारस्य षत्वं भवति इति अस्ति. इण्कोः इत्युक्ते इन् प्रत्याहारे इति सर्वे स्वराः अपि च लण् पर्यन्तम् अन्तस्थवर्णाः सन्ति चेत् तत्र हकारः अस्ति चेत् तत्र भवति. अथवा कवर्गः अथवा रका कवर्ग अस्ति चेत् अथवा कवर्गमध्ये अस्ति चेदपि तत्र सकारपूर्वं कवर्ग अथवा सर्वे स्वराः सन्ति चेत् किमपि अन्यस्वरा अस्ति चेत् सत्वं भवति. अकारमर्जयित्वा अवर्णमर्जयित्वा सर्वे सन्ति चेत् तत्र सत्वं भवति. सकारस्य शकारः भवति. इदानीं तत्र नास्ति शाखासु पत्रिकापि इति अस्ति. अत्र समीचीनं, किमपि कार्यं नास्ति, केवलं
धन्यवादः.
इदानीं राधिका भगिनी पठति वा अग्रे?
आम् आं महोदय. अराः चक्रेषु सन्ति, चक्रे चक्रयोः चक्रेषु. नपुंसकलिङ्ग माधुर्यं फलेषु भवति फले फलयोः फलेषु मृगाः वनेषु भवन्ति वने वनयोः वनेषु अङ्गुलीयकानि
तावदेव तावदेव तत्र चक्रं चक्रम् पठतु तदपि पठतु अङ्गुलीयकानि
अङ्गुलीयकानि अङ्गुलीषु सन्ति अङ्गुल्ये अङ्गुल्योः अङ्गुलीषु अङ्गुल्याम् अङ्गुल्योः अङ्गुलीषु आपणाः वीथीषु सन्ति वीथ्यां वीथ्योः वीथीषु हंसाः वापीषु तरन्ति वाप्यां वाप्योः वापीषु
वापीषु अत्र सर्वत्र पश्यतु अत्र ईकारः अस्ति सकारात् पूर्वम् अथवा वापीषु वीथीषु अङ्गुलीषु अत्र किमपि नास्ति तत्र सकार योजनीयं सु इति योजनीयं परन्तु सकारस्य शब्दं भवति इति अस्ति सन्धिः भवति केवलं परन्तु चक्रेषु चक्रमस्ति चक्राणि अस्ति खलु तत्र चक्रेषु अत्र एकारः अस्ति अतः अकारः नास्ति अतः अत्रापि सकारः भवति सकारस्य वनं वनेषु इति तादृशरूपाणि सन्ति इदानीम् इदानीं वयं रूपाणि जानीमः इदानीं तर्हि किं भवति अकारान्त चेत् तत्र गजे गजयोः अत्र गजेषु इति भवति प्रेङ्का प्रेङ्कायां प्रेङ्कयोः प्रेङ्कासु इति भवति तादृशं तत्र रूपाणि वयं जानीमः किञ्चित् इदानीं तत्र किञ्चित् तस्य व्याकरणदृष्ट्या पश्यामः इदानीं किम् अस्ति इति तस्य किमर्थं सप्तमीभक्ति भवति तस्य कारणं किम् इति तत्र किञ्चित् व्याकरणरीत्या पश्यामः इदानीं तत्र वयम् इदानीं जानीमः सप्तमीभक्ति किं दर्शयति तत्र अधिकारकं दर्शयति अथवा उपपदविभक्ति सप्तमीभक्ति उपपद तत्र द्विविधं भवति कारकसप्तमी अपि च उपपदसप्तमी इति तत्र सप्तमी द्विधा वक्तुं शक्नुमः कारकसप्तमी इत्युक्ते यत्र यस्य पदस्य कारकसंज्ञा अस्ति अधिकरणकारकसंज्ञा अस्ति तर्हि अधिकरणकारकं पुरस्कृत्य यत् विभक्तिं योजयामः तत्र कारकसप्तमी इति वदामः यत्र यस्य पदस्य अधिकरणकारकम् इति संज्ञा भवति तदा तत्र सप्तमीभक्ति भवति इति तत्र यदा तस्मिन् स्थाने वयं सप्तमीभक्तिं योजयामः तत्र कारकसप्तमी इति वदामः अतः विभक्तीनां कार्यं किमस्ति कारकं द्योतयितुम् इट् रिफ्लेक्ट्स् इट्स् अ मीनिङ्ग् आफ् दट् वर्ड् कारक इदानीं गजे इत्युक्ते यत् अधिकरणमिति तद् दर्शयति सप्तमीभक्ति तदेव कारसु इति प्रत्ययस्य तदेव अस्ति सप्तमीभक्तेः किमस्ति वने वनयोः वन वनेषु इति खलु तत्र सप्तमीभक्ति दर्शयति अधिकरणं दर्शयति अपि च अन्यत्रापि भवितुमर्हति उपपदविभक्ति केवलं परिगणितपदानां सामान्यता किम् अस्ति तत्र अव्ययानि सन्ति तेषां प्रयोगेन तत्र अथवा अन्येषु अन्यसम्बन्धं दर्शयितुं तत्र विभक्तिप्रत्ययस्य योजनं भवति सप्तविभक्तेः तत्र कारकः नास्ति क्रियायाः साक्षात् सम्बन्धः नास्ति तथापि तत्र विभक्ति योजयामः चेत् तत्र उपपदविभक्ति वदामः इति उपपद सप्तमी तादृश शब्दानां प्रयोगे वाक्ये प्रयोगे तत्र यत्र सप्तमीविभक्ति अस्माभिः योजयामः तत्र तस्य उपपदसप्तमी इति वदामः उपपदसप्तमी इति वदामः तत्र कारकसप्तमी उपपदसप्तमी कारकसंज्ञाम् उद्दिश्य यत् पुरस्कृत्य यद् विहितं विभक्ति यद् विहिता विभक्तिः कारकविभक्ति कारकसप्तमी इति वदामः चेत् कारकसप्तमी अधिकरणसंज्ञां पुरस्कृत्य स्पेसिफिक् वर्ड्स् स्पेसिफिक् अर्थे साक्षात् क्रियया सह तत्र तस्य किमस्ति तस्य अन्वयः नास्ति परन्तु तत्र यत्र तादृशशब्दस्य प्रयोगः भवति अथवा तादृशस्मिन् अर्थे भवति सप्तविभक्ति कारकविभक्ति नास्ति, यत् कारकसंज्ञा अधिकरणकारकं नास्ति, परन्तु सप्तविभक्ति अस्ति, तदेव उपपदसप्तमी इति वदामः। इदानीं पश्यामः इदानीं किम् अस्ति अग्रे तत्र
अधिकरणकारक इत्युक्ते क्रियापदं
कारकमित्युक्ते क्रियान्वयी कारकं खलु, क्रियया सह अन्वेति। इदानीं पश्यतु राजा गजे उपविशति इति अस्ति, उपविशति इति अस्ति क्रियापदमस्ति, कः उपविशति इति प्रश्नं कुर्मः चेत् वयं जानीमः राजा उपविशति, अतः कर्ता राजा। कुत्र उपविशति इति प्रश्नं कुर्मः चेत् तत्र कारक गजे उपविशति इति अस्ति, तत्र गजे। इदानीं तत्र वयम् उत्तरं प्राप्नुमः, यदा उत्तरं नास्ति चेत् इदानीं बालकेषु रामः चतुरः इति अस्ति, चतुरः अस्ति इति, बालकेषु रामः चतुरः अस्ति, अस्ति इति क्रियापदमस्ति, कः 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 अस्ति, रामः अस्ति इति क्रियापदं, चतुरः अस्ति, रामः चतुरः अस्ति। इदानीं बालकेषु इति अस्ति खलु, बालकेषु इति तत्र क्रिया अस्ति इति क्रियापदस्य किमपि सम्बन्धः नास्ति, अतः तत्र केन कारणेन भवति तद् तदेव उपपदति यदि, परन्तु तत्र बालकाः इत्यस्मिन् सप्तमीभक्ति अस्ति, बालका बालके बालकयोः बालकाः सारि बालके बालकयोः बालकेषु बालकेषु इदानीं सप्तमीभक्ति अस्ति, इदानीं सप्तमीभक्ति अपि विहितमस्ति, तत् कारकविभक्ति नास्ति, किमर्थमित्युक्ते बालकाः तत्र अस्ति इति क्रियापदे किमपि सम्बन्धः नास्ति, अतः किमपि किं कारणेन केन अर्थेन निर्धारणे सप्तमी इति वदामः, निर्धारणे निर्धारणार्थे तत्र सप्तमी विभक्तिं सप्तमीभक्ते प्रयोगः अभवत्, कारकनिमित्तिक विभक्तिः नास्ति, अतः तदेव उपपदविभक्ति इति वदामः। अग्रे पश्यामः इदानीं तत्र किं किं कारकविभक्ति भवति,
उपपदविभक्ति
भवति, यथा वयं दृष्टवन्तः खलु जल मीनाः जीवन्ति, जलं विना मीनाः न जीवन्ति इति अस्ति, विना इति अस्ति जलं विना इति अत्र मीनाः जीवन्ति इति अस्ति, अकर्मक अस्ति, अत्र जीवन्ति इति क्रियापदे किम् अस्ति, तत्र के जीवन्ति न जीवन्ति, मीनाः न जीवन्ति। इदानीं जलम् इत्यस्य जीवन्ति इति क्रियापदे तत्र किमपि तत्र अन्वयः नास्ति, तर्हि किमर्थं तत्र जलम् इत्यस्य द्वितीयविभक्तिः अभवत्, किमर्थमिति चेत् तत्र विना इति अव्ययम् उपयोगं कृतवन्तः विना इति विदौट् इति, अतः तत्र यदा विना इति प्रयोगः भवति तत्र द्वितीयविभक्तिः भवति, विना इति प्रयोगः तृतीयापि भवति, परिगणितपदानां विना इति, अथवा मार्गस्य उभयता सोरि मार्ग उद्यानम् अस्ति, मार्गम् उभयतः उद्यानम् अस्ति, उभयतः प्रयोगे द्वितीय उद्यानमस्ति इति क्रियापदम् अस्ति इति क्रियापदं किमस्ति, उद्यानमस्ति। इदानीं मार्गम् इति अस्ति खलु, मार्गमिति पदमस्ति मार्गः, तस्य द्वितीयविभक्तिः अभवत्, किमर्थं तत्र कारकविभक्तिः नास्ति, कारकमस्ति वा सामान्यतः कर्म भवेत् खलु, द्वितीयविभक्तिः किं भवति कर्मणि द्वितीया इति द्वितीयविभक्तिः भवति, इदानीं मार्ग इति कर्ममस्ति वा नास्ति खलु, उद्यानम् अस्ति अकर्मक अस्ति, अस्ति इति कर्मपदं नास्ति एव, मार्गं द्वितीयविभक्ति अस्ति, केन कारणेन उभयतः इति पदं वयं योजितवन्तः, सः उभयतः उभयतः प्रयोगे वाक्ये तत्र उपपदस्य समीपे उप इत्युक्ते समीपे समीपमस्ति तस्य द्वितीयविभक्तिः भवति, तदेव उपपदविभक्तिः वदामः, उपपदसप्तमी सत्य उपपदद्वितीया का कर्म कर्म कर्मकारकद्वितीया कर्मद्वितीया उपपदद्वितीया इति अस्ति। इदानीं तत्र अधिकरणकारकसप्तमी इति अस्ति, कारकद्वितीया अथवा उपपदद्वितीया, अत्र कारकसप्तमी उपपदसप्तमी इति तादृश अहं पूर्वं उक्तवान् प्रायः उक्तवान् आसीत् उपपदकारकस्य विषये किञ्चित् परिचयत्वेन उक्तवान् आसीत्, अग्रे पश्यामि तत् स्पष्टं भवति अग्रे। इदानीं
धन्यवादः।
इदानीं तत्र कारकसप्तमी इत्यत्र कारकमित्यत्र सप्तमी, कारकसप्तमी कुत्र भवति, अधिकरण अधिकरणं वाक्ये यत् आश्रयः अस्ति, अधिकरणमस्ति चेत् अधिकरणम् अस्ति चेत् तत्र क्रियायाः अधिकरणमस्ति चेत् अधिकरणकारकमस्ति चेत् तत्र सप्तमी भक्ति भवति, तदेव कारकसप्तमी इति अस्ति। इदानीम् अधिकरणमित्युक्ते नाम किम् इत्युक्ते क्रियायाः अथवा कर्मणः फलस्य आधारः अस्ति तदेव अधिकरणम् इति वदामः. अधिकरणम् इदम् अधिकरणे अधिकरणे सप्तमे अधिकरणे चेति सूत्रेण यदा अधिकरणकारकं कारकसंज्ञा प्राप्नोति वाक्ये यत्पदं तस्य सप्तमी भक्ति भवति. तत् द्योतयितुम् अधिकरणकारकं द्योतयितुं वक्तुं तत्र सप्तमीभक्तेः प्रयोगः भवति. तदेव सप्कारकसप्तमी इति वदामः. इदानीं पश्यतु, बालः कटे उपविशति. अत्र बालः कर्ता अस्ति, कर्तकारकमस्ति. उपवेशनक्रियायाः आधारः किमस्ति? अत्र कटः अस्ति. अतः कटः एव अधिकरणमस्ति. अतः अधिकरणम् अतः तत्र अधिकरणकारकं भवति. तत्तेव अधिकरणकारकम् इति वदामः. यत् अधिकरणमस्ति क्रियायां तद् अधिकरणकारकम् इति वदामः. इदानीं पश्यतु, सौ सूदः ओदनं स्थाल्यां पचति इति अस्ति. इदानीं पश्यतु, अत्र सूदः इति अस्ति, अतः कर्ता अस्ति, अतः कर्तकारकं कर्तकारकमस्ति. ओदनं द्वितीयभक्तौ अस्ति, कर्म अस्ति. ओदनम् इत्युक्ते ओदन कर्मकारकमस्ति. अत्र विक्लिप्तरूपफलम् अस्ति यत् विच् विच् इस् द बाय्ल्ड् स्टेट् विच् इस् फलं कुत्र अस्ति इति ओदने अस्ति. ओदने रैस् अस्ति खलु, ओदने अस्ति. ओदनं फलम् अस्ति, सारि, ओदनम् इति कर्मकारकम् अस्ति. द्वितीयविभक्तिः अस्ति स्थाली. इदानीं कर्मणः इदानीं कुत्र अस्ति ओदनं? स्थाल्याम् अस्ति खलु, स्थाली इति स्थाल्याम् अस्ति. स्थाली एव आधारमस्ति. इदानीं विक्लिप्तरूपस्य फलस्य ओदनस्य आधारः किम् अस्ति? स्थाली अस्ति. अतः स्थाली अधिकरणं, स्थाली अधिकरणं. तर्हि तत्र संयोगः, साक्षात् संयोगः भवति. यत्र संयोगः भवति, संयोग इत्युक्ते द्वयोः द्रव्योः संयोगः भवति, तदेव तत्र संयोगः इति वदामः. तत्र साक्षात् मेलनं भवति, तत् संयोगः. अतः अधिकरणम् आदेः अस्ति. यत् अत्र पश्यतु, ओदनम् आदेः भवति, आधारः स्थाली भवति. अतः यत्र आधारः अस्ति तत्र अधिकरणम् इति वदामः. आधारो अधिकरणम् इति पाणिनीयसूत्रमस्ति. सप्तमी अधिकरणे च इति विभक्तिविधायकसूत्रमस्ति. सप्तमी अधिकरणे च इति सूत्रमस्ति. तदेव, अतः अधिकरणसंज्ञां पुरस्कृत्य विहिता विहिता विभक्तिः कारक कारकसप्तमी इति वदामः चेत् अतः अधिकरणे सप्तमी अधिकरणे इति सूत्रेण भवति. अस्तु, वयम् इदानीं तत्र अधिकरणमिति जानीमः. तर्हि अधिकरणं कीदृशं भवति? तत्र वयं दृष्टवन्तः. इदानीं पश्यतु, गजे उपविशति अस्ति. महाराजः राजा गजे उपविशति. पक्षिणः आकाशे डयन्ति. अत्र द्वयमपि अस्ति, तत्र भेदः अस्ति खलु. गजे यत्र संयोगः अस्ति, इदानीम् आकाशे इति अत्र किमपि नास्ति खलु. इट् इस् इट् वाक्यूम् खलु. तत्र कथम् अधिकरणं भवति इति वदामः चेत् तत्र भिन्नरीत्या भवति. वैषयिक आधारः तथैव अभिव्यापक आधारः इति आधारः त्रिधा विभजितुं शक्नुमः. एकमस्ति औपश्लेषिक आधारः, द्वितीयमस्ति वैषयिक आधारः, अभिव्यापक आधारः इति वदामः. औपश्ले उपश्लेषिक इति समीपे अस्ति चेत्, यत् समीपे अस्ति, संयोगः भवति तदा तद् आधारः. औपश्लेषिक आधारः इति वदामः चेत् महाराजः गजे उपविशति. इदानीं गज गजस्य अपि च महाराजस्य तत्र उपविश तत्र संयोगः अस्ति, समीपे अस्ति. अतः औपश्लेषिक आधारः भव इति वदामः. एकस्मिन् भागे गजस्य सम्पूर्णगजे गजस्य उपरि न तिष्ठति खलु. गजस्य उपरि पृष्ठभागे उपरि उपरितनभागे एव तिष्ठति खलु. अतः औपश्लेषिक अथवा एकदेशिक इति भव एकदेशे इत्युक्ते एकस्मिन् स्थले एव तिष्ठति. इदानीम् अहं कटे बालः कटे उपविशति, कटम् अभिव्याप्य तिष्ठति वा? इन् द पोर्शन्. तदेव औपश्लेषिक आधारः इति वदामः. अग्रे पश्यामः. इदानीं तत्र इतोपि स्पष्टं भवति उदाहरणं दृष्ट्वा. एकदेशव्याप्तिरूपः आधारः, एकदेश इत्युक्ते एकस्मिन्. पश्यतु, बालः कटे उपविशति. अत्र बालः कटस्य एकदेशे तस्य उपवेशनक्रिया अस्ति. एकदेशे कटस्य एकदेशे उपविशति, एकस्मिन् भागे उपविशति, न तु कृष्णे कटे. एण्टायर् ही सिटि विल् नाट् सिट् अन् एण्टायर् अन् द काट् नो. अतः तत्र बालस्य कटस्य संयोगसम्बन्धः अस्ति. अतः अधिकरणं तदेव एकदेशव्याप्तिरूपः, तदेव औपश्लेषिक आधारः. इदानीं तस्य वेन् औपश्लेषिक आधारः, इदानीम् अभिव्यापक आधारः किमस्ति चेत् तत्र व्याप्नो सम्पूर्णं व्याप्नोति, तदेव आधारः. सकल अवयवव्याप्तिरूपः आधारः इति वदामः. तत् उदाहरणं किम् अस्ति? तिलेषु तैलं, तैलं तिल इत्युक्ते जानीमः खलु किमस्ति तत्र? तिलं बडिकाल्
सेसमि.
आमां सत्यं तदेव सिसां खलु, सिसां वा? अस्तु, तस्मिन् पश्यतु तैलमिति एकस्मिन् भागे नास्ति खलु, सर्वेषु अङ्गेषु तैलमस्ति खलु. यदा तत् निष्पीडयामः तत् तैलं भवति खलु, एकस्मिन् स्थले एव नास्ति. यथा अस्माकं शरीरे हृदये कुत्र अस्ति? एकस्मिन् स्थले अस्ति, परन्तु तादृश नास्ति खलु अत्र, तादृशस्थितिः नास्ति तत्र. अत्र इट् एन्कम्पस् एण्टायर् तिलं, तिलेषु तैलं, तिलः आधारः, तैलम् आदेयः. तिलानां सकल अवयवेषु अस्ति तैलमस्ति, तिलानां सकल अवयवेषु तैलमस्ति. तदेव अभिव्यापक आधारः इति वदामः, इट् कवर्स् एण्टायर्, तदपि भवति. दद्धि सर्पिः, दधनी अथवा दद्धि सर्पिः, सर्पि इत्युक्ते घृतम् अस्ति खलु, किमस्ति किमस्ति वाट् यु काल् दद्नि, दद्नि इति नवनीते, नवनीते दद्नि, आर् यु केन् से दधि, दधि इत्युक्ते कर्ड् इन् देट् इट् केन् कम्स् एव्रिवेर्, इट् इस् नाट् इन् इन् अ पर्टिक्युलर् प्लेस्. अतः अभिव्याप्य सकल अवयवेषु अस्ति खलु. यदा तत् तम् आलोडनं कुर्मः तदा एव नवनीतं भवति. अनन्तरं तस्य इदं तत्र तस्य पाकं कुर्मः तदा एव भवति खलु, सर्पिः भवति. तदेव अतः दत्नः सर्व अवयवेषु सर्पिः अस्ति इति अस्ति. एकनिमिष, अस्तु अग्रे. इदानीं तत्तादृश अस्ति अभिव्यापक. इदानीं वैषयिक आधारः, विषयरूपी आधारः किमस्ति? विषयरूपी आधारः पठने इच्छा अस्ति. इदानीं पठने इच्छा अस्ति, अतः पश्यतु आधारः इति तादृश संयोगः नास्ति खलु. यत्र विषयता सम्बन्धेन भवति तत्र सम्बन्धः, तत्र किमस्ति अधिकरणं. पठने इच्छा अस्ति, पठनम् आधारः, अतः तत्र तस्य सप्तमी भक्तिः भवति. पठनम् इति आधारः, तत्र अधिकरणकारकम् अस्ति पठनम् इति. पठने इच्छा अस्ति, मोक्षे इच्छा अस्ति, संस्कृते मम रुचिः अस्ति, तादृश तत्र विषयरूपी आधारः. इट्स् लैक् नाट् लैक् औपस्थैषिक अथवा अभिव्यापक आधारः. वि केनाट् लिटरलि सी देट् नो. पठने इच्छा अस्ति, अथवा पक्षिणः आकाशे डयन्ति, तदपि वैषयिक आधारः इति वदामः. तत्र किञ्चित् अत्र पश्यामः इदानीं तत्र इतोपि इदानीम् औपशैषिक अधिकरणम् औपशैषिक अधिकरणम् इति वदामः. औपशैषिक आधारः तस्य अधिकरणसंज्ञा भवति. इदानीं पश्यामः इदानीं तत्र रूपाणि सन्ति. इदानीं सुमित्राभगिनी पठति वा तत्र बालकः अस्ति वा?
Did you want me to read it?
Yes, yes. And also tatra vibhakti api yojaniyam. Balakah.
Balakah
tarati.
Nadim tarati.
Nadyam iti nadim
tarati.
Sorry.
Nadim asti tatra pashyatu tru dhatoh tatra atra adhikarana sujama atra kim asti atra dvayam bhavati. टु क्रास् इति अस्ति, एकमस्ति इन्द इति अस्ति खलु, टु स्विम् इति. टु क्रास् इति तदा यत् टु क्रास् इति वदामः चेत् तत्र कर्मकारकं भवति. इदानीं तत्र तरणक्रिया अस्ति, नद्यां तरति इति भवति. वेन् द मीनिङ्ग् इस् टु क्रास् तेन् तत्र कर्णपदं भवति द्वितीयविभक्ति. नदीं तरति, तत्र त्रिधातोः तदेव वैशिष्ट्यमस्ति. त्रिधातोः तरति, नदीं तरति, नद्यां तरति, रूपद्वयमपि भवितुमर्हति. नदीं तरति इत्युक्ते इट् इस् क्रासिङ्ग् द नदी, अत्र कर्म भवति, कर्मपदं भवति. किमस्ति अत्र कर्तृ इत्यनेन, कर्म इत्यनेन तस्य किमस्ति, तस्य क्रियायाः फलं किम् अस्ति तत्र अन्यतीरं तिरुपति गमनं तस्य अतः तत्र नदी अत्र कर्मपदं भवति परन्तु अत्र तरणक्रिया स्विमिङ्ग् अतः तत्र क्रियायाः आधारः किम् अस्ति नदी अस्ति अतः नद्याम् इति भवति अतः अत एतदस्ति औपश्लेषिक आधारः संयोगः अस्ति खलु बालकस्य अपि च नदेः नद्याः अतः नद्यां तरति अग्रे
सो नदीं तरति मीन्स् इस् क्रासिङ्ग् द रिवर् नद्यां तरति मीन्स् इस् स्विमिङ्ग् इन् द रिवर्
आं सत्यम् अधिकरणं नद्याम् इति वदामि खलु नद्याम् इति अधिकरणमस्ति खलु नदीं तरति खलु क्रासि तत्र तत्तृधातोः विशेषणमस्ति वैशिष्ट्यमस्ति
थेङ्क् यु ऐ अण्डर्स्टाण्ड् इट् नौ गजः गजः जलाशये जलं पिबति Should it not be me here because it is drinking from
ha jalashaye atra sadapi jalashaye atra pashatu ekam asti anyadasti karakam vivaksha anugunam bhavati atra jalashaye kutra iti kutra jalam pibati iti vadamasti tatra atah kriya padam uddishya kutra iti vadam jalashaye अत्र पश्यतु भवत्याः विवक्षा अस्ति तत्र अपादान इत्युक्ते तत्र जलाशयात् जलं पिबति इति वक्तुं शक्नुमः अत्र मम विवक्षा नास्ति अहम् इदानीं जलाशये कुत्र जलं पिबति इति मम विवक्षा अस्ति अत्र कुत्र अत्र अत्र तत्र क्रियायाः अत्र जलाशये जलं पिबति इति भवति
थेङ्क् यु राजा तल्पे शेते
अत्र अत्रापि अधिकरणम् औपश्लेषिक आधारः अस्ति औपश्लेषिकृति एकभागे भवति खलु शयनक्रिया अतः एतद् औपश्लेषिक आधारस्य उदाहरणमस्ति तल्पे शेते इति तादृशरूपाणि
नद्याम् इस् अभिव्यापक जलाशयः
अभिव्यापकः नास्ति बालकः नद्याम् एकभागे तरणं करोति खलु एकस्मिन् भागे भवति अभिव्यापकः न भवति खलु औपश्लेषिका भवति संयोगः अस्ति खलु एकस्मिन् भागे एकदेशरूपकव्यापारः अपि औपश्लेषयतु एकदेश खलु एकदेशे एव तरति खलु एकभागे एकस्मिन् भागे अतः तदेव भवति धन्यवादः अस्तु अग्रे इदानीं निरञ्जना भगिनी अग्रे
शाखायां खगाः उपविष्टाः सन्ति तत्र शाखा आपणन्ति सप्तमी औपश्लेषिकः सिंहः अटव्याम् अटव्याम् अटति अटव्याम् अपि औपश्लेषिकस्ति एकदेशी गोण्यां गोधूमाः सन्ति तत्रापि श्रीलिङ्गीकारान्त औपश्लेषिकस्ति संयोगः भवति तत्र माता शिरस्ति वा शिरम् अस्ति शिरं शिरे माता
शिरे
शिरसि
मनसि वा मनसि मनांसि खलु शिरसि शिरांसि इति भवति
माता शिरसि तैलं नियोजयति तत्र सम्पूर्ण शिरं
भिन्ना
अभिव्यापकः अस्ति वा अभिव्यापकः
न अभिव्यापकः नास्ति खलु तत्र शिरसि इत्युक्ते लैक् तिलेशतैलम् इति अभिव्यापकः अस्ति खलु सर्वे अन्तः अपि करोति वा नास्ति उपरि भाग उपरितनभागे एव खलु शिरसि
उपरितन उपरितनभागे अस्ति
अतः तादृशः of course on outer side she will apply entire but parantu not the entire like tailam tilesh tailam tadrsha
tilesh
tailam tadrsha tadrsha nastikalo
जनाः जनाः वाटिकायां विहरन्ति, तत्रापि औपश्लेषिक अस्ति. बालः हृदः हृदे स्थित्वा दृश्यति, हृदे स्थित्वा दृश्यति. हृदे सम्पूर्णहृदयमस्ति,
हृदय इत्युक्ते भिन्नमस्ति खलु, तत्र तादृश नास्ति. हृदय इत्युक्ते इति अहं
चिन्तयामि, औपश्लेषिक अस्ति. माता शरीरे अभ्यङ्गं करोति, तत्रापि एकदेशी अस्ति, औपश्लेषिके सम्पूर्णशरीरं भवति. मिथ्यां विपणिः अस्ति, तत्रापि औपश्लेषिक अस्ति.
औपश्लेषिक अस्ति, इदानीं तादृश अस्ति. इदानीं वयं जानीमः एकदेशे यस्य आधारः अस्ति तदेव औपश्लेषिक आधारः इति वदामः. एकदेश व्याप्मा अधिकरणम् इति एकदेश आधारः तदेव औपश्लेषिक आधारः. उपश्लेष इति समीपे इति अस्ति, संयोगः भवति तत्र, साक्षात् संयोगः भवति आदे आधारयोः, परन्तु अन्यत्र न भवति इति अस्ति. वयं पठने इच्छा अस्ति खलु, तत्र वयं न संयोगसम्बन्धः नास्ति तत्र. अस्तु, विशेषारूपसम्बन्धः भिन्नसम्बन्धः अस्ति, अग्रे पश्यामः इदानीं. तत्र एकवारं तत्र अस्तु, तत्र एकवारं तत्र कः पठ शङ्करप्रसादमहोदय, सुभाषितानि पठ्यामः किञ्चित् तत्र.
धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारे जनः श्मशाने देह
चितायां
देहश्चितायां परलोकमार्गे कर्मानुगो गच्छति जीव एक शैले शैले.
न एकवारं तत्र एकं पश्यतु, तत्र सप्तविभक्ति किम् अस्ति?
धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारे जनः श्मशाने देहः चितायां
सम्यक्
परलोक मार्गे मार्गे कर्मानुगो गच्छति जीव एकः.
न तत् न अस्तु, तदहं जानीमः. धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारे जनश्मशाने देहस्थितायां परलोकमार्गे कर्मानुगो गच्छति जीव एकः इति अत्र वयं जानीमः. जीव एकः गच्छति, केन केन सह गच्छति? कर्मानुगः कर्मणि, यत् यस्य कर्म अस्ति, कर्मस्य कर्म एव तस्य कर्मस्य फलमेव तेन सह गच्छति. कुत्र? परलोकमार्गे. परन्तु यस्य तस्य धनं यद्धनानि सन्ति तत् अथवा धन पशु सम्पत् यत् तस्य सम्पदा पशवः यत्किमपि भवतु अथवा भार्या धनानि भूमौ एव तत्र त्यक्त्वा गच्छति खलु, एक एव गच्छति. तत्र पशवः अन्य सम्पत्तिः अस्ति तत्र, तदपि गोष्ठे गोष्ठे इत्युक्ते न षट् भार्या श्मशानं पर्यन्तं न गच्छति, सः गृहद्वारे एव भवति. जनाः श्मशानपर्यन्तम् आगच्छन्ति, परन्तु अन्यत् अनन्तरं जीव एक एव गन्तव्यं. देहः अपि त्यक्त्वा गच्छति जीवः, पश्यतु देहः अपि त्यजति. देहचितायां देहचितायां परलोकमार्गे गच्छति जीव एकः इति एकः सुभाषितमस्ति. तत्र सर्वत्र औपश्लेषिका अस्ति, तत्र तथैव अत्र अग्रे अस्ति. इदानीं समयः अभवत्, अग्रे पश्यामः इदानीं तत्र. अस्तु, धन्यवादः, अत्र एव स्थगयामः. समयः अभवत्. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चिदकवाक् भवेत्. ॐ शान्तिश्शान्तिश्शान्तिः. धन्यवादः.
धन्यवादः महोदय.
धन्यवादः.
शुभरात्रिः.